ओम नमो भगवते वासुदेवाय। अथ सप्तमोऽध्यायः। श्री शुक उवाच, एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुधः प्रीणयन्निव भारत्या विदुरः प्रत्यभाषत। विदुर उवाच, ब्रह्मन् कथं भगवतश्चिन्मात्रस्याविकारिणः, लीलया चापि युज्येरन्निर्गुणस्य गुणाः क्रियाः, क्रीडायामुद्यमोऽर्भस्य कामश्चिक्रीडिशान्यतः, स्वतस्तृप्तस्य च कथं निवृत्तस्य सदान्यतः, अस्राक्षीद्भगवान् विश्वं गुणमय्यात्ममायया, तया संस्थापयत्येतद्भूयः प्रत्यपिधास्यति, देशतः कालतो योऽसावस्थातस्वतोऽन्यतः, अविलुप्तावबोधात्मा सयुज्येता जया कथं, भगवानेक एवैष सर्वक्षेत्रेष्वस्थितः, अमुष्यदुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः, एतस्मिन्मे मनो विद्वन् खिद्यते ज्ञानसङ्कटे, तन्नः पराणुदविभो कस्मलं मानसं महत्। श्रीशुक उवाच, स इत्थं चोदितक्षत्रा तत्त्वजिज्ञासुना मुनिः, प्रत्याह भगवच्चित्तस्मयन्निव गतस्मयः। मैत्रेय उवाच, सेयं भगवतो माया यन्न येन विरुध्यते, ईश्वरस्य विमुक्तस्य कार्पण्यमुतबन्धनं, यदर्थेन विनामुस्य पुंसात्मविपर्ययः, प्रतीयत उपद्रष्टु स्वशिरश्छेदनादिकः, यथा जले चन्द्रमसः कम्पादिस्तत्कृतो गुणः, दृश्यते सन्नपि द्रष्टुरात्मनो नात्मनो गुणः, स वै निवृत्तिधर्मेण वासुदेवानुकम्पया, भगवद्भक्तियोगेन तिरोधत्ते शनैरिह, यदेन्द्रियोपरामोऽथ द्रष्टात्मनि परे हरौ, विलीयन्ते तदा क्लेशा संसुप्तस्येव कृत्स्नशः, अशेषसङ्क्लेशसमं विधत्ते गुणानुवादश्रवणं मुरारेः, कुतः पुनस्तच्चरणारविन्दपरागसेवारतिरात्मलब्धा। विदुर उवाच, सञ्छिन्नः संशयो मह्यं तव सूक्तासिना विभो, उभयत्रापि भगवन्मनो मे सम्प्रधावति, साध्वे तद्व्याहृतं विद्वन्नात्ममायायनं हरेः, आभात्यपार्थं निर्मूलं विश्वमूलं न यद्बहिः, यश्च मूढतमो लोके यश्च बुद्धेः परं गतः, तावुभौ सुखमेधेते क्लिश्यत्यन्तरितो जनः, अर्थाभावं विनिश्चित्य प्रतीतस्यापि नात्मनः, तां चापि युस्मच्चरणसेवयाहं पराणुदे, यत्सेवया भगवतः कूटस्थस्य मधुद्विषः, रतिरासो भवेत्तीव्रः पादयोर्व्यसनार्दनः, दुरापायल्पतपसः सेवा वैकुण्ठवर्त्मसु, यत्रोपगीयते नित्यं देवदेवो जनार्दनः, सृष्ट्वाग्रे महदादीनि सविकाराण्यनुक्रमात्, तेभ्यो विराजमुद्धृत्य तमनुप्राविशद्विभुः, यमाहुराद्यं पुरुषं सहस्राङ्घ्रियूरुबाहुकम्, यत्र विश्व इमे लोका सविकासं समासते, यस्मिन् दशविधः प्राणः सेन्द्रियार्थेन्द्रियस्त्रिवृत्, त्वयेरितो यतो वर्णास्तद्विभूतिर्वदस्वनः, यत्र पुत्रैश्च पौत्रैश्च नप्त्रिभिः सह गोत्रजैः, प्रजाविचित्राकृतय आसन् याभिरिदं ततम्, प्रजापतीनां सपतिश्चक्लृपेकान् प्रजापतीन्, सर्गांश्चैवानुसर्गांश्च मनून्मन्वन्तराधिपान्, एतेषामपि वंशांश्च वंशानुचरितानि च, उपर्यधश्च ये लोका भूमेर्मित्रात्मजासते, तेषां संस्थां प्रमाणं च भूर्लोकस्य च वर्णय, तिर्यङ्मानुषदेवानां सरीसृपपतत्रिणां, वदनःसर्गसंव्यूहं गार्भस्वेदद्विजोद्भिदां, गुणावतारैर्विश्वस्य सर्गस्थित्यप्ययाश्रयं, सृजतश्रीनिवासस्य व्याचक्षोदारविक्रमं, वर्णाश्रमविभागांश्च रूपशीलस्वभावतः, ऋषीणां जन्मकर्मादिवेदस्य च विकर्षणं, यज्ञस्य च वितानानि योगस्य च पथः प्रभो, नैष्कर्म्यस्य च साङ्ख्यस्य तन्त्रं वा भगवत्स्मृतं, पाखण्डपथवैषम्यं प्रतिलोमनिवेशनं, जीवस्य गतयोयाश्च यावतीर्गुणकर्मजाः, धर्मार्थकाममोक्षाणां निमित्तान्यविरोधतः, वार्तायादण्डनीतेश्च श्रुतस्य च विधिं पृथक्, श्राद्धस्य च विधिं ब्रह्मन् पितॄणां सर्गमेव च, ग्रहनक्षत्रताराणां कालावयवसंस्थितिं, दानस्य तपसो वापि यज्ज्येष्ठापूर्तयोः फलं, प्रवासस्थस्य यो धर्मो यश्च पुंस उतापदि, येन वा भगवान् तुस्येद्धर्मयो निर्जनार्दनः, सम्प्रसीदति वा येषामेतदाख्या हि चानघ, अनुव्रतानां शिष्याणां पुत्राणां च द्विजोत्तम, अनापृष्टमपि ब्रूयुर्गुरवो दीनवत्सलाः, तत्त्वानां भगवंस्तेषां कथिता प्रतिसङ्क्रमः, तत्रेमं कौ पासीरन् कौ स्विदनुशेरते, पुरुषस्य च संस्थानम् स्वरूपम् वा परस्य च ज्ञानम् च नैगमम् यत्तद्गुरुशिष्यप्रयोजनम् निमित्तानि च तस्येह प्रोक्तान्यनघसूरिभिः स्वतो ज्ञानम् कुतः पुंसाम् भक्तिर्वैराग्यमेव वा एतान्मे पृच्छतः प्रश्नान् हरे कर्म विवित्सया ब्रूहि मेज्ञस्य मित्रत्वादजया नष्टचक्षुषः सर्वे वेदाश्च यज्ञाश्च तपोदानानि चानघ जीवाभयप्रदानस्य न कुर्वीरन् कलामपि श्रीशुक उवाच स इत्थमापृष्टपुराणकल्पः कुरु प्रधानेन मुनिप्रधानः प्रवृद्धहर्षो भगवत्कथायाम् सञ्चोदितस्तम् प्रहसन्निवाह ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् तृतीयस्कन्धे सप्तमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।